अथ पञ्चदशोऽध्यायः श्रीभगवानुवाच ऊर्ध्वमूलमधशाखमश्वत्तङ्प्राहुरवयं छन्दंसि यस्य वर्णानि जस्तङ्वेदसवेदवि अधश्चूर्ध्वप्रसितास्तस्य शाखा गुणप्रविद्धा विषयप्रवाला अधश्च मूलन्ननुसन्ततानि कर्माणुबन्धीनि मनुष्यलोके न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा अश्यत्यमेन सुविरूढमूलम् असङ्गशस्त्रेण दृढेन चित्त्वां ततः पदं ततः परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति हूय त्वमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसिता पुराणे निर्वाणमोहा जितसङ्गदोषा अध्यात्मनित्यावृत्तकामः द्वन्द्वैर्विमुक्ता सुखदुःखसङ्गै गच्छन्तमूढः पदमव्ययं तत् न तद्भाषयते सूर्यो न शशङ्को न पावक यद्गर्ता न निवर्तन्ते तद्धाम परमं मम ममैवांशो जीवलोके जीवभूतः सनातना मनःषष्ठानीन्द्रियाणि प्रकृते स्थानि कर्षति शरीरं यदवापनोति यच्चप्पुत्क्रामतीश्वर गृहीत्वैतानि संयाति वायुर्गन्धा निवासयात् श्रोत्रं चक्षुस्पर्शनं च रसनं घ्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवते उत्कामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितं विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषा यतन्तो योगिनश्चैनं पश्यन्त्यात्तन्नवस्थितं यतन्तोपकृतात्मानो नैनं पश्यन्त चेतसः यदादित्यागतं तेजो जगद्भाषयतेऽखिलं यच्चन्दमसि यच्चग्नौ तत्तेजो विद्धि मामकं गामाविश्य च भूतानि धारयं महमोजसा उष्णामि चौषधिः सर्वा सोमो भूत्वा रसात्मक अहं वैश्या नरो भूत्वा प्राणिनं देहमाश्रित प्राणापान समायुक्त पचम्यन्नं चतुर्भिदं सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्मृतिर्ज्ञानपकोहनञ्च वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदभिदेव चाहं दाविमौ पुरुषौ लोके शराक्षाक्षर एव च शरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते उत्तमः पुरुषस्तन्यः परमात्मेत्युदाहृता यो लोकत्रयमाविश्य बिभर्त्यावयैश्वर यस्मात् क्षरमतीतोह मक्षरादपि चोत्तमा अतोऽस्मि लोके वेदे च कथितः पुरुषोत्तम यो मामेवमसङ्गमूढो जानाति पुरुषोत्तमं स सर्वविद् भजति मां सर्वभावेन भारत इति गुज्जतमं शास्त्रं मिदमुक्तं मया नघ एतद्बुद्धा बुद्धिमान् स्याद् कृतकृतश्च भारत ॐ तत्सद् इति श्रीमहाभारते शतसाहस्रं संहितायं वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे पुरुषोत्तम योगो नाम पञ्चदशोऽध्यायः।